रुद्रादित्यामसवोयेच्च साध्या विश्वेशिनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ति त्वां विस्मिताश्चैव सर्वे रूपं महत्ते बहुमात्र नेत्रं महाबाहो बहुबाहुरुपादं बहुदरं बहुदं श्राकरालं दृष्ट्वा लोकः प्रव्यथिता सखाहं नवस्पृशं दीप्तमनेकवर्णं व्याप्ताननं दीप्तविशालनेत्रं दृष्ट्वा हि त्वं प्रव्यथितान्तरात्मा भीतिं न विन्धामि शमं च विष्णु दंष्टाकरालानि च ते मुखानि दृष्टेव कालानलशन्निवानि दिशो न जाने न लभे च शर्म प्रसिद्ध देवेश जगन्निवास अमी च त्वं धृतराष्ट्रस्य पुत्रा सर्वे सहै भावनिपालसङ्घे भीष्मो द्रोण सुतपुत्रस्तथासौ सहस्मदीयैरपि योधमुख्यैः वक्त्राणि ते परमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्नादशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखारवन्ति तथा तवामी नरलोकवीरा विशन्ति पत्राण्यभिज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोका स्तवापि पत्राणि समृद्धवेगाः लेलिहसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनेर्ज्वलद्भिः तेजोभिरापूर्य जगत् समग्रं भासस्तभोग्रं प्रतपन्ति विष्णो आख्याहि मे को भवनुग्ररूपो नमस्तु ते देववर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः प्रीतेऽपि त्वां न भविष्यन्ति सर्वे यवस्थितः प्रत्यनिकेषु योधा तस्मात् त्वमुद्दिश्य यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मयैवेते निहता पूर्वमेव निमित्तमात्रं भव सत्यसाची द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा ज्ञानपि योधवीरान् मया हतं स्वं जहिमान्यथिष्ठा युद्धस्व जेतासि रणे सपत्ना
सञ्जय उवाच
एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमनः किरीटि नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत प्रणम्य
अर्जुन उवाच
काले ऋषिकेश तव प्रकीर्त्या जगत् प्रहिष्यत्यनुरज्यते च लक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः कस्मच्च तेन नभिरन् महात्मन् वरीयसे ब्रह्मणोऽप्याधिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरं सदसत्तः परं यत् त्वमादिदेव पुरुष पुराण स्वस्य विश्वस्य परं निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपा वायुर्यमोऽग्निर्वरुणशशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्ते तु सहस्रकृत्यः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादथ पृष्ठतस्ते नमस्तु ते सर्वत एव सर्वा अनन्तवीर्यामित विक्रमत्वं सर्वं समाप्नोषि सतोऽसि सर्वः सकेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सकेति अजानता महिमानं त्ववेदम् मया प्रमादत् प्रणयेन वापि यच्चावहा सात्तमसत्कृतोऽसि विहारशय्यासनभोजनेषु एकोऽथवाप्यच्युत तत्समक्षं तत्श्यामये त्वामहमप्रमेयम् पीतासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् न त्वत्समोऽस्याभ्यधिककृतोऽन्यो लोकत्रयेभ्यः प्रतिमप्रभावः